अथ द्वितीयोऽध्यायः साधनपादः तपस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः समाधिभावनार्थः क्लेशतनूकरणार्थश्च अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्चक्लेशाः अविद्याक्षेत्रम् उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणाम् अनित्याशुचिदुःखानात्मसु नित्याशुचिसुखात्मख्यातिरविद्या दृग्दर्शनशक्योरेकात्मते वास्मिता सुखानुषयी रागः दुःखानुषयी द्वेषः स्वरसवाही विदुषोऽपि ततारूढोऽभिनिवेशः ते प्रतिप्रसवहेयाः सूक्ष्माः ध्यानहेयाः तद्वृत्तयः क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः सति मूले तद्विपाको जात्यायुर्भोगाः देह्लादपरितापपलाः पुण्यापुण्यहेतुत्वात् परिणामतापसंस्कारदुःखैः गुणवृत्तिविरोधाच्च दुःखम् एव सर्वं विवेकिनः हेयं दुःखम् अनागतं द्रष्टृदृश्ययोः संयोगो हेयहेतुः प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यं विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि दृष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः तदर्थ एव दृश्यस्यात्मा कृतार्थं प्रतिनष्टमप्यनष्टं तदन्यसाधारणत्वात् सस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः तस्य हेतुरविद्या तदभावात् संयोगाभावो हानं तद्दृशेः कैवल्यं विवेकख्यातिरविप्लवाहानोपायः तस्य सप्तदा प्रान्तभूमिप्रज्ञा योगङ्गानुष्ठानातशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोष्टावङ्गानि अहिंसा सत्यास्तेयब्रह्मचर्या परिग्रहा यमाः एते जातिदेशकालसमयानवच्छिन्नाः सर्वभौमा महाव्रतं शौचसन्तोषतपस्वाध्यायेश्वरप्रणिधानानि नियमाः वितर्कबाधने प्रतिपक्षभावनं वितर्काहिंसादयकृतकारितानुमोदिता लोभक्रोधमोहपूर्वका मृदुमध्यादिमात्रा दुःखाज्ञानन्तपला इति प्रतिपक्षभावनम् अहिंसा प्रतिष्ठायां तत्सन्निधौ वैरत्यागः सत्यप्रतिष्ठायां क्रियापलाश्रयत्वम् अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानं ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः अपरिग्रहस्तैर्ये जन्मकतान्ता सम्बोधः शौचात् स्वङ्गजुगुप्सा परैरसंसर्गः सत्त्वशुद्धिसौमनस्येकाग्रयेन्द्रियाजयात्मदर्शनायोग्यत्वानि च सन्तोषाद् अनुत्तमसुखलाभः कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः स्वाध्यायात् इष्टदेवता संप्रयोगः समाधिसिद्धिरीश्वरप्रणिधानात् स्थिरसुखमासनं प्रयत्नशैतिल्यानन्तसमापत्तिभ्यां ततो द्वन्द्वानपि गातः तस्मिन् सति श्वासप्रश्वासयोः गतिविच्छेदः प्राणायामः बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसङ्ख्याभिः परिदृष्टो दीर्घसूक्ष्मः बाह्याभ्यन्तरविषयक्षेपी चतुर्थः ततः क्षीयते प्रकाशावरणं धारणासु च योग्यता मनसः सविषया संप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः ततः परमावश्यतेन्द्रियाणाम् इति साधनपादः समाप्तम्।